एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तुत्री रत्नावली शर्मा। जलवायु विज्ञान विभागेन अस्मिन् वर्षे वर्षायामेन देशे लक्ष चतुष्टयस्य पञ्चाशत सहस्राणांश गृहपरिवाराणां विंशतिर्लक्षाणि जना प्रभाविता भविष्यन्तीति अनुमितं वर्तते। जलवायु विज्ञान विभागस्य पूर्वानुमानस्य आधारेण राष्ट्रिय विपत् संकट न्यूनीकरण व्यवस्थापन प्राधिकरणेन सर्वाणि विषय वस्तूनि विश्लिष्य निर्मितायाम् एतद् विक्रम वर्षीयायां प्रस्तावित वर्षायाम् पूर्व कार्य प्रतिकार्य राष्ट्रिय कार्ययोजनायाम् एवं अनुमानम् विहितं वर्तते। प्रभावितेषु प्रतिशतं दशानां जनानां उद्धार सहयोगकरणस्य अवस्थायाः आकलनेन सह कार्ययोजना निर्मिता स्थिति प्राधिकरणस्य प्रवक्ता रामकुमार केसी असूचयत्। परशु ज्येष्ठस्य चतुर्दशे दिवसे विपत् संकट न्यूनीकरण व्यवस्थापन कार्यकारी समितेः उपवेक्ष्यमाणे उपवेशे राष्ट्रिय कार्ययोजनेयं प्रस्तुष्यते। तेनैव उपवेशेन च अस्याः कार्ययोजनायाः पारितीकरणानन्तरं क्रियान्वयनं भविष्यति इति च प्रवक्ता केसी अज्ञापयत्। जलवायु विज्ञान विभागेन कर्णाली प्रदेशस्य पूर्वदेशीय भूभागेषु लुम्बिनी प्रदेशस्य उत्तर भूभागेषु गण्डकी प्रदेशस्य प्रायः भूभागेषु च वृष्टेः प्रभावः अधिकः सम्भविष्यतीति अनुमितं वर्तते। अशैव ज्येष्ठ मासस्य अष्टादशात् दिवसात् आश्विनस्य चतुर्दशम दिवसं यावत् मासचतुष्टयस्य अवधौ देशस्य प्रायः भूभागेषु अधिकवर्षाणां सम्भावनया सह तापक्रमस्य न्यूनतापक्रमस्य सम्भावना वर्तते इति विभागस्य प्रवक्ता विभूति पोखरेलः अज्ञापयत्। हुतात्मा धर्मभक्त राष्ट्रियांग प्रत्यारोपण केन्द्रेण नेपाले प्रथमवारं मस्तिष्क मृत्योः कारणात् मृतस्य जनस्य यकृत विक्रयोः सफलतापूर्वकं प्रत्यारोपणं विहितमस्ति। केन्द्रेण ह्यः भक्तपुरे आयोजिते पत्रकार सम्मेलने केन्द्रस्य कार्यकारी निर्देशकः डा पुकार चन्द्र श्रेष्ठः मस्तिष्क मृत्यु भूतात् जनात् प्राप्तयोः यकृत विक्रयोः च सफलतापूर्वकं प्रत्यारोपणं विहितमस्ति इति असूचयत्। अशैव ज्येष्ठ मासस्य प्रथमे दिवसे मस्तिष्क मृत्यु युतस्य अष्टादश वर्षीयस्य पुरूषस्य यकृत विक्रयोः प्राप्तेः अनन्तरं काष्ठमण्डप चिकित्सा महाविद्यालयेन निष्कासितेषु अंगेषु एकस्य वृक्कस्य यकृतश्च एकस्मिन् पुरूषे अपरस्य वृक्कस्य च अपरे पुरूषे सफलतापूर्वकं प्रत्यारोपणं विहितमस्ति इति अख्यापयत्। कार्यकारी निर्देशकः श्रेष्ठः विश्वे प्रायो दुर्लभस्य एतादृशस्य प्रत्यारोपणस्य नेपालस्य कृते प्रथम सफलता वर्तते इत्यपि असूचयत्। जुम्ला जनपदस्य हिमा ग्रामपालिका बाल विवाह मुक्त पालिका उद्घुष्टा वर्तते। कर्णाली प्रदेशस्य 79 स्थानीय स्तरेषु हिमा ग्रामपालिका बाल विवाह मुक्त पालिकात्वेन उद्घुष्टा अस्ति। ह्य एकस्मिन् समारोहे महिला बाल बालिका ज्येष्ठ नागरिक मन्त्री नवल किशोर शाह सुडी हिमा ग्रामपालिकायाः बाल विवाह मुक्त पालिकात्वेन घोषणां विहितवान्। घोषणायाः अनन्तरं मन्त्री सुडी 30-2000 पूर्वं सप्तसु प्रदेशेषु कर्णाली प्रदेशं बाल विवाह मुक्त प्रदेशत्वेन प्रतिष्ठापयितुं कार्यं कर्तव्यम् इति अभाषत। हिमा ग्रामपालिकायाः अध्यक्षः लक्ष्मण बहादुर शाही हिमा ग्रामपालिकया भौतिक विकासेन सहैव सामाजिक विकासेऽपि उदाहरणपूर्वकं कार्यं विहितमस्ति इति असूचयत्। विषाक्तं छत्राकं भुक्त्वा रोगिणः सञ्जातः इलाम जनपदस्य मासेबुङ ग्रामपालिकायाः एकस्य वौडा क्षेत्रस्य त्रयो जनाः मृताः सन्ति। मासेबुङ ग्रामपालिकायाः पञ्चम वौडा क्षेत्रस्य 55 वर्षीय अमर लावती, 25 वर्षीया मनिषा लिम्बु, 17 वर्षीया नुमा लावती च मृता वर्तन्ते। झापा जनपदस्य बिर्तामोड नगरपालिकायाः बीएनसी चिकित्सालयस्य सूचना अधिकारिणः डा अनुपम घिमिरे इत्यस्य अनुसारेण षड्भ्यो दिवसेभ्यः पूर्वं चायुद्याने अंकुरितानां छत्राकाणां भक्षणेन एते जनाः आकस्मिकरूपेण रुग्णाः आसन्। मनिषायाः नुमायाश्च विराटनगरवर्तिनी चिकित्सालये एतत्पूर्वमेव मृत्युः सम्भूत आसीत्। लावती इत्यस्य या बीएनसी चिकित्सालये मृत्यु सम्भूतोऽस्ति। विद्यालय शिक्षा विधेयकम् आधृत्य विमर्शनस्य कृते शिक्षा विज्ञान प्रविधि मन्त्रालयेन अतिरिक्तः एकसप्ताहस्य समयः याचितोऽस्ति। शिक्षा समितेः स्तनोपवेशे शिक्षा विज्ञान प्रविधि मन्त्री रघुजी पन्तः शिक्षकाणां याचनायाः सम्बोधनस्य विषये नेपाल शिक्षक महासंघेन सह विमर्शनं जायमानमस्तीत्यतः विधेयकमाधृत्य विमर्शनस्य कृते सप्तानां दिवसानां समयः याचितवान्। विमर्शने सांसदः विधेयके विद्यमानेषु विभिन्नेषु विषयेषु सर्वकारस्य धारणायाः याचनायाः अनन्तरं मन्त्री पन्तः शिक्षकैः सह विमर्शनं जायमानमस्तीत्यतः निष्कर्षे प्रापणानन्तरमेव सर्वकारेण धारणा प्रस्तोष्यते इति अवदत्। शिक्षामन्त्रिणः पन्तस्य अनुरोधस्य अनन्तरं शिक्षासमितेः सभापतिः अमरबहादुर थापा एकसप्ताहस्य अनन्तरम् उपवेक्ष्यमाणे उपवेशे विधेयकस्य सन्दर्भे आधिकारिकीं धारणाम् आनेतुं मन्त्रालयं निरदिशत्। शिक्षकाणां याचनानां सम्बोधने सर्वकारेण अर्थभारः बोढव्यो भवतीत्यतः शिक्षामन्त्रालयेन एकाकिना एव निर्णयं विधातुं न शक्यते इत्यतः विमर्शने अर्थमन्त्रालयं चापि आमन्त्रयितुं शिक्षामन्त्री पन्तः समितिं परामृष्टवान्। प्रधानमन्त्री नेकपा एमाले दलस्य अध्यक्षस्य केपी शर्मा ओली निगदति स्थानीय स्तरस्य निर्वाचितैः ओढाध्यक्षैः जनतया स्वदलेन च सह घनिष्ठं सुदृढं च सम्बन्धं संस्थाप्य विकास सुशासनयोः कृते कार्यं कर्तव्यम्। नेकपा एमाले दलस्य बागमती प्रदेशस्तरीय जननिर्वाचित ओढाध्यक्षाणां प्रशिक्षण कार्यक्रमं पूर्वेद्युः ललितपुरे उद्घाटयन् प्रधानमन्त्री ओली जनतायै सहज सेवायाः प्रदानेन सह विकास सुशासनयोः स्थापनस्य सन्दर्भे निर्वाचित पालिकायाः प्रमुखैः उपप्रमुखैः सह अन्य राजनीतिक दलैश्चापि समन्वयं विधाय जनतायाः विश्वासस्य जयत्वेन कार्यं कर्तुम् अनुरुणात्। नेकपा एमाले दलेन ज्येष्ठ मासस्य पञ्चदशे दिवसे गणतन्त्र दिवसम् आराष्ट्रम् उत्सवरूपेण आयोजयितुं निर्णीतमस्ति। च्यासलवर्तिनी नेकपा एमाले दलस्य केन्द्रीय कार्यालये ह्य उपविष्टेन एमाले दलस्य सचिवालयोपवेशेन गणतन्त्रस्य विरुद्धो जायमाना सर्वेऽपि गतिविधयः सह्याः न भवन्तीति निष्कर्षेण सहितं गणतन्त्र स्थापनायाः दिवसम् उत्सवरूपेण आयोजयितुं निर्णीतमस्तीति दलस्य महासचिवः शंकर पोखरेलः असूचयत्। महासचिवः पोखरेलः उपवेशेन गणतन्त्र दिवसस्य अवसरे आराष्ट्रं दलसमितिषु पालिकास्तरेषु च विशेषाणां कार्यक्रमाणाम् आयोजनायै निर्णीतमस्तीति असूचयत्।